सर्वेभ्यः स्वागतम्। गतकक्षायाम् अहं बहून् विषयान् उक्तवान् आसम्, तदपि पेज् लेऔट् सम्बद्धविषयान्। केचन प्रयत्नमपि कृतवन्तः। अहम् अन्ते रेफरेन्स् दानविषये अपि उक्तवान् आसम्, रेफरेन्स् कथं दातव्यम् इति। तद्विषये केचन तु ज्ञातवन्तः, केषाञ्चन इतोपि सन्देहाः वर्तन्ते कथं रेफरेन्स् दातव्यम् इत्यस्मिन् विषये। तद्वयं पश्यामः। तत्र पृष्ठम् अस्ति एवम् इति चिन्तयतु। अहं पुनः पृष्ठं प्रति कथं गन्तव्यम् इति न दर्शितवान्, परन्तु एकः मुख्यः विषयः प्रवेशः, लागिन् करणीयमेव। इदानीम् अहं प्रविष्टवान् अस्मि वा? प्रविष्टवान् अस्मि, अतः प्रवेष्टव्यं, प्रविश्यताम् इति अस्ति, अत्र प्रवेष्टव्यं संस्कृतविकि इति अस्ति। एवमत्र अहं मम पास्वर्ड् लिखित्वा प्रवेशं कृतवान्। हा, इदानीं प्रविष्टवान् अस्मि, संस्कृतविकि इति अकौण्ट् अस्ति, अहं प्रविष्टवान् अस्मि। इतः परम् अहं कार्याणि कर्तुं शक्नोमि। पश्यतु अत्र विशेषरूपेण एतस्मिन् पुस्तके रेफरेन्स् दानविषये अस्माभिः किञ्चित् पठनीयम् अस्ति। एतद् विजयलक्ष्मी भगिनी मम कृते सन्देशं प्रेषितवती, एतस्मिन् पुटे, नवदशे पुटे, नवदश इति अस्ति, नवदश इति नवदशे पुटे अहं कृतवती, किञ्चित् पश्यतु। अस्तु, विजयलक्ष्मी भगिनी कृतवती, अत्र वयम् इतिहासः दृश्यताम् इत्युक्ते के कृतवन्तः इति द्रष्टुं शक्नुमः। पश्यतु, विजयलक्ष्मी भगिनी एतावदेवं परिवर्तनानि कृतवती अस्ति अत्र इति वयं दृष्टवन्तः। अस्तु, प्रयत्नं कृतवती, बहु उत्तमं, परन्तु तस्याः समस्या आसीत्, तत्र वयं गच्छामः। सम्पाद्यताम् इत्यत्र नोदनं करणीयम्। अत्र केषाञ्चन अन्यापि समस्या अस्ति, अत्र आर् एच् सेण्टर् रैट् लेफ्ट् बोल्ड् इति सर्वम् अस्ति खलु, तद् न आगच्छति इति समस्या। केषाञ्चन उपरि आगच्छति, उपरि अथवा अधः कुत्रचित् तदागच्छति, तस्य विषये चिन्ता नास्ति। यदि अत्र एतत् स्थाने गैप् स्माल् बिग् इत्यादि स्थाने अन्यत् किमपि आगच्छति चेत् किं करणीयम्? अत्र बहु विकल्पाः सन्ति। कदाचित् भवतां यन्त्रे भिन्नविकल्पः चितः, इत्युक्ते क्लिक् कृतं स्यात्, पश्यतु अहम् एतत् करोमि चेत् एतावदेव आगच्छति, अत्र अधिकं नागच्छति। भिन्नं किमपि अत्र एवं करोमि चेत् एतावदेव आगच्छति, अधिकं नागच्छति। अरुणा भगिन्याः प्रायः एषा समस्या अभवत् इति अहं चिन्तयामि। अरुणा भगिनी अस्ति खलु? अस्तु, अत्र एवं नुदामः चेत् विकि सम्पादनम् इति अस्ति, विकि मार्कप् इति न, विकि सम्पादनम् इत्यत्र वयं गच्छामः चेत् एतत् सर्वं वयं प्राप्तुं शक्नुमः इति विचारः। अस्तु, इदानीम् अन्यत् सर्वं यद् वयं पठितवन्तः तद् ज्ञातमस्ति। अत्र पश्यतु, हेडर् फुटर् नास्ति एव, अतः एवं भवति पुटं प्रायेण। पुटपरिशीलनस्य उपकरणानि इति अत्र अस्ति, तत्र एवं क्लिक् करणीयं। क्लिक् कृत्वा हेडर् फोटर् अन्यत् इत्यस्य समीपे भवति, तत्र नोदनं करणीयं, तदानीं हेडर् आगतं, फुटर् अपि आगतम्। अत्र रेफरेन्स् रूपेण एकः श्लोकः अस्ति, पुनः अधः किञ्चित् पङ्क्तिः अस्ति। वस्तुतः अधः यद् अस्ति तद् रेफरेन्स् न, एतद् पाठान्तरविषये उक्तमस्ति, यतोहि रेफरेन्स् चेत् अत्र लिखितं भवति किमपि, अत्र तस्य एतद् भवति, परन्तु अत्र तथा नास्ति, केवलम् अधः अस्ति, अतः तद् केवलं फुटर् मध्ये स्थापनीयम्। अत्र रेफरेन्स् कथम् अहम् उक्तवान्, यत्र भगिनी अपि कृतवती, पश्यतु अत्र अहं हैलैट् करोमि, रेफ् इति दृश्यते, रेफ् रेफ् इति एतावत् दृश्यते, भगिनी अपि प्रयत्नं कृतवती, परन्तु सम्पूर्णतया तद् रेफरेन्स् रूपेण न आगतम्। तत् कथम् इति अहं वदामि इदानीम्। इदानीम् एतावदेव भगिनी यत् कृतवती तत् पश्यामः चेत् कथं दृश्यते इति पश्यामः। पश्यतु, अत्र अस्ति, अत्र पुस्तके रेफरेन्स् मध्ये यदुक्तं स्तोत्रे फलं क्रियाणामथवा विधीनाम् इति सम्पूर्णश्लोकः रेफरेन्स् मध्ये एव अस्ति। 45 रेफरेन्स् मध्ये एवं सम्पूर्णश्लोकः अस्ति। भगिनी किं कृतवती? सम्पूर्णश्लोकं रेफरेन्स् मध्ये न लिखितवती, केवलं किञ्चित् भागम् एवं लिखितवती. तथा नास्ति, वयं सम्पूर्णश्लोकं रेफरेन्स् मध्ये लिखामः. इदानीं अस्तु, इदानीं वयं अत्र अस्ति, अत्र सत्यं रेफरेन्स् इति अत्र अस्ति, स्तोत्रे यदुक्तं स्तोत्रे इति रेफरेन्स् अत्र अस्ति खलु, उत्तमम् अत्र अस्ति. तद् न तद्वितीय रेफरेन्स् आसीत्. अत्र एवं पश्यामः, एतत् कुत्र आगच्छति वस्तुतः, सम्पूर्णम् अधोभागे, इत्युक्ते यदुक्तं स्तोत्र इति अत्र अस्ति खलु, तत्र सर्वं निष्कासयामः वयं. यद्यद् सा एतद् दत्तवती तद् एतद् सामान्यतया आरम्भे, कार्यस्य आरम्भे अस्माकं पुस्तके एवं भवति. यदुक्तं स्तोत्र इति अत्रैव योजितं भवति, रेफ् अपि एतद् न भवति. सत्यम्, एतद् द्वितीय रेफ् अभवत्, क्षम्यताम्. एतदपि इति कुत्र, यत्र अत्र अस्ति, तद् सा न निष्कासितवती. अस्तु, चिन्ता नास्ति, सम्यगेव. वयम् अत्र टेग् सर्वं निष्कासयामः. अहं गतकक्षायाम् उक्तवान् एतद् यद् टेम्प्लेट् वयम् उपयुञ्ज्महे तस्य वर्णः भवेत् चेत् एतस्य नोदनं करणीयं. पश्यतु, यत् हैलैट् अभवत् इदानीम्, एतदेव केवलं निष्कासयामः अत्र. अत्र यदुक्तं स्तोत्रे इत्यस्य पार्श्वे सर्वम् अस्ति, तत्सर्वं निष्कासयामः. यत् पश्य पैप् एकम् अधिकम् अस्ति, तदपि निष्कासयामः. ओयं बोल्ड् सर्वं निष्कासयामः. अन्तु पुनः करणीयं, पुनः कथं सम्यक् करणीयम् इति दर्शयितुम् अहम् इदानीं कुर्वन् अस्मि. अस्तु, इदानीं पश्यतु, पञ्चचत्वारिंशत्, षड्चत्वारिंशत् इति द्वयम् अस्ति. रेफरेन्स् कुत्र अस्ति, एतद् पञ्चचत्वारिंशत् इति द्वितीयपङ्क्त्याम् अस्ति. तद् तत्र नीत्वा स्थापनीयं. तत्र नीत्वा स्थापनसमये पुनः एवं लेऔट् करणम् अस्माकं बहु कठिनं भवति. अतः वयम् अत्रैव तद् लेऔट् कुर्मः. तत् कथम् इति अहं वदामि. इदानीम् एषः श्लोकः अस्ति खलु, पुनः एषा पङ्क्तिः अस्ति. अत्र एकं स्मर्तव्यम्, एवं ग्याप् दद्मः चेत् तद् बोल्ड् इति तद् गच्छति. तत् कथम् इति अहम् अनन्तरं विवरणं करोमि, इदानीं मास्तु. अत्र केवलं बि आर् इति लिखामः. बि आर् लेखनीयम् इति नास्ति, अत्र अधः एव बि आर् इति एतद् अस्ति, टेम्प्लेट् अस्ति, ततः अपि क्लिक् कर्तुं शक्नुमः. अस्तु, इदानीम् एषः श्लोकः अस्ति. श्लोकः अस्ति चेत् केवलं पोयं दातव्यं, यतोहि एतद् मध्ये नास्ति, ब्लाक् सेण्टर् न दातव्यं, केवलं पोयं दातव्यं. कुत्र अस्ति केवलं पोयम् अन्वेष्टव्यम्? अत्र अस्ति पोयं, पोयम् इति अहं पोयं पोयम् इति दत्तवान्. एतत् सर्वं गतकक्षायाम् अहं पाठितवान् कथम् इति. अस्तु, तद् क्लिक् न अभवत्, पुनः पश्यामः. पश्यतु, अत्र अस्ति पोयं, तद् दत्तवान्. क्षम्यताम्, अत्र कोऽपि दोषः अभवत्. अत्र सेलेक्ट् एवं करणीयं, पुनः पोयम् इत्यत्र नोदनं करणीयम्. अस्तु, अत्र कोऽपि दोषः अस्ति इति अहं चिन्तयामि. भवतु, एकं सेण्टर् इदानीं दद्मः. वस्तुतः बि आर् इत्यनन्तरं तथा दत्तवान् इति प्रायः तथा भवत् अस्ति. कार्यं न करोति पोयम् इति. अस्तु, तत्र यद् टेक्निकल् सन्ति तत्र केचन कार्यं कुर्वन्तः भवन्ति इति कारणतः इदानीं पोयम् इति सम्यक् कार्यं न करोति तत्र. परन्तु तद् इदानीं घण्टाभ्यन्तरे एव सम्यक् भवितुमपि अर्हति, तत्र चिन्ता नास्ति. अतः वयं पोयम् इति लिखामः अत्र. किमर्थम्? तत्र यत्र संस्कृतभारती प्रेजेंटेशन इति लिखितम् अस्ति तत्र भवद्भिः क्लिक् करणीयं पिन् करणीयं पिन् यत् चित्रमस्ति तत्र पिन् करणीयं तदानीं प्रेजेंटेशन् दृश्यते नो चेत् प्रेजेंटेशन् न दृश्यते अतः सर्वे अपि प्रेजेंटेशन् इत्यत्र पिन् कुर्मः अत्र गैप दातव्यं यतोहि किञ्चित् दूरे अस्ति खलु यदुक्तम् इति अत्र अस्ति एतद् अत्र अस्ति इति कृत्वा गैप ददामि गैप इति पश्यतु गैप अपि एवं सम्यक् इदानीं कार्यं न कुर्वत् अस्ति अतः अहम् इतः कापि पेस्ट् एव करोमि अद्य सर्वं पश्यतु पेस्ट् यत् एषः एकः सुलभः उपायः लेऔट् समये यदि समानं दातव्यमस्ति तद् कापि कृत्वा स्थापयामः पुनः अत्र किञ्चित् इतोपि दूरे अस्ति इति कृत्वा गैप् अधिकं दातव्यं द्विवारम् एवं गैप् दत्तवान् अत्र एकवारमेव गैप् तृतीयपङ्क्तौ एवम् अस्ति इति अत्र पुनः द्विवारं गैप् इत्येवं कृत्वा एतद्धिया निष्कासयामः तेन कारणतः एव समस्या स्यात् अस्तु एवं सम्पूर्णं स्वीकृत्य रेफ् इति क्लिक् कुर्मः रेफ् इति यत्र अस्ति तत्र तद्भवति वा इति पश्यामः किमपि न भवत् अस्ति भवति चेत् अस्माकं भाग्यं हा रेफ् इति किञ्चित् अग्रे कुत्रापि आगतम् अस्ति प्रायः अत्र सेलेक्ट् मध्ये समस्या अस्ति अहं यदि रिफ्रेश् करोमि तत् सम्यक् भवति परन्तु इदानीम् अहं इदानीमहं पुनः रिफ्रेश् करोमि चेत् कृतं कार्यं सर्वमपि गच्छति एतादृशं कार्यं यदा भवति तदानीं प्रायः यदा वयं रिफ्रेश् कुर्मः तदानीं सम्यक् भवति इदानीं पश्यामः अहं सिण्टेक्स् तत् निष्कासितवान् हा इदानीं सम्यक् आगतं पश्यतु कुत्रचित् एवं लघु लघु दोषाः भवन्ति वयमेव इतस्ततः किञ्चित् पश्यामः चेत् सम्यक् कर्तुम् अर्हामः यद्यपि एतत् कठिनमिव भासते परन्तु कठिनं नास्ति किञ्चित् यदा कार्यं कुर्वन्तः गच्छामः तदानीं सम्यक् ज्ञायते पश्यतु अत्र दोषः अभवत् रेफरेन्स् कुतः स्तोत्रे इत्यत्र अस्ति ततः एव रेफरेन्स् उपरिष्टादेव अतः अत्र एवं दत्तवान् अनन्तरं किं कार्यमस्ति एतत् सम्पूर्णम् एकवारं सम्यक् अस्ति वा इति पश्यामः यतोहि तत्र नयामः चेत् पुनः बहु कन्फ्यूस् भवति पश्यतु तत्र पुस्तके यथा अस्ति यदुक्तं स्तोत्रे इति तथैव अभवत् इदानीम् अत्र अहं रेफ् इति तत्र लिखितवान् इति कारणतः अत्र एवम् आगतं परन्तु यत्र स्थाने अस्ति तत्र नीत्वा स्थापनस्य कार्यम् अवशिष्टम् अस्ति वयम् एवं कुर्मः अत्र कट् कुर्मः तत् कुत्र अस्ति अत्र द्वितीयपङ्क्तौ प्रयोजना इति यत्र अस्ति तत्र अस्ति पश्यतु द्वितीयपङ्क्तौ प्रयोजनप्रयोजनानवकाश प्रयोजना इत्यत्र अस्ति खलु अतः वयं प्रयोजना इत्यनन्तरं तद् पेस्ट् कुर्मः इदानीं पश्यामः प्रादृश्यं पश्यामः सम्पूर्णं रेफरेन्स् अत्र अधः एवम् आगतम् अस्ति इति अनन्तरं किमस्ति द्वितीयमपि रेफरेन्स् अत्र अस्ति 46 इति तत्र किमपि करणीयं नास्ति एकस्यामेव पङ्क्तौ अस्ति भगिनी एव तद् कृतवती अपि सम्पूर्णपङ्क्तिः तत्र नेतव्या अत्र अस्ति खलु रेफ् रेफ् इति एतदेव अहं कट् करोमि कः सूरज् महोदय प्रेजेण्टेशन् भवतः अपि अत्र दृश्यते कृपया प्रेजेण्टेशन् आफ् करोतु अहं यद् दर्शयामि तद् न दृश्यते नो चेत् एवम् उपरि अपि यद् 45 इति अस्ति तद् अस्माकं न अपेक्षते सङ्ख्या न अपेक्षते तत्र स्वयं सङ्ख्या आगच्छति खलु अतः तद् निष्कासयामः एतदिदानीं रेफरेन्स् कथमिति पश्यामः अत्र 46 इति अस्ति तत्रापि अस्माकं सङ्ख्या न आवश्यकी पुनः द्विवारम् आगतमस्ति एकवारम् अहं डिलीट् करोमि अत्रैव अहं रेफरेन्स् इति ददामि कथम् एवं इति दत्तवान् रेफ् रेफ् इति अभवत् तद् कट् करोमि अनन्तरं तद् कुत्र अस्ति इति अत्र अन्विषामि परभैरवसंवित् इत्यनन्तरम् अस्ति तत् कुत्र अस्ति परभैरवसंवित् इति अत्र अस्ति टेक्स्ट् मध्ये तत्र नीत्वा कापि करोमि एवं यदा कापि करोमि रेफरेन्स् आगतम् इति अस्तु इदानीम् एतद्वयमपि अस्ति खलु अस्माकं पुस्तके अधोभागे विकिमध्ये अहम् उक्तवान् इतोपि कार्यं कुर्वन्तः सन्ति भारतीयपुस्तकेषु तत्रापि प्राचीनसंस्कृतपुस्तकेषु एवं भवति अन्यत्र सर्वत्र किं भवति रेफरेन्स् पुटस्य अन्ते एव आगच्छति यद् रेफरेन्स् अस्ति तत् पुटस्य अन्ते इति नियमः अतः तत्र किम् अस्ति रेफरेन्स् अन्ते अस्ति चेत् अन्ते एव आगच्छति अतः रेफरेन्स् सर्वान्ते एव आगच्छति वयं सद्यः किमपि कर्तुं तस्मिन् विषये न शक्नुमः अतः एकं कार्यं कुर्मः एतद् रूल् सहितं रूल् अपि अत्र फूटर् मध्ये स्थापयामः फूटर् अस्ति कुत्र पुनः गतमस्ति पुनः उद्घाटनीयं फूटर् उद्घाटितम् अत्र फूटर् दृश्यते फूटर् मध्ये द्वयं स्थापयामः पुनः अत्र एकं रूल् स्थापयामः पुनः रेफ् लिस्ट् इति दातव्यम् अत्र अधः रेफ् लिस्ट् इति अस्ति यतोहि रेफरेन्स् तत्र आगच्छेत् इति इदानीम् एकवारं पुटं पश्यामः रोल् आगतं रोलानन्तरम् एतदागतम् एतदनन्तरम् अन्ते रेफ् लिस्ट् इति आगतम् अस्ति कृपया म्यूट् करोतु कोऽपि रेफ् लिस्ट् इति आगतं धन्यवादाः एवं रेफ् लिस्ट् आगतम् एतद्वयम् अधः आगतम् अधः आगन्तव्यं किञ्चित् उपरि आगतं तद् अस्मिन् पुस्तके वयं किमपि कर्तुं न शक्नुमः एवम् एकैकपुस्तकं यदा पश्यन्तः गच्छामः केचन लघु लघु दोषाः भवन्ति पश्यतु अत्र एतत् किमर्थमेवम् आगतं हि अनन्तरम् एवमस्ति तद् किमर्थम् इति इदानीं चिन्तनीयं स्वयम् एवं पश्यामः चेत् किञ्चित् ज्ञातुं शक्नुमः तत्र कुत्र दोषः जातः अस्ति रत् अनन्तरं हि इत्यत्र उत्तरं यत्र हि इति अस्ति तत्र वयम् एवं न कृतवन्तः इदानीम् एवं कुर्मः चेत् कार्यं समाप्तम् इति चिन्तयामि परिवर्तनानि प्रकाशयामि इदानीम् अत्र आगतं पश्यतु अत्रापि तादृशी एव स्थितिः अस्ति इति ज्ञातम् अस्माभिः अतः पुनः तत्र एतत् करणीयम् अत्रापि निष्कासनीयम् एतत् डिलीट् कुर्मः चेत् एवं निष्कास्यते एवं योजनीयम् अत्रापि आगतं स्यात् अतः अत्रापि एवं करणीयम् इदानीं पश्यतु अत्र आगतं स्यात् एवं कुत्रापि अत्र आगतं नास्ति कुत्रापि न स्यात् इदानीं प्राग्दृश्यं पश्यामः प्राग्दृश्ये सर्वं सम्यक् आगतम् इति कृत्वा वयं प्रकाशयामः एतस्य पुटस्य सम्पूर्णं कार्यं जातमस्ति विजयलक्ष्मी भगिनी एकवारं पठितवती अस्ति एकवारं विजयलक्ष्मी भगिनी पठितवती द्वितीयवारं पठनम् अन्येन करणीयं पुनः विजयलक्ष्मी भगिनी एव कर्तुं न शक्नोति इदानीम् अहम् उद्घाटयामि चेत् सम्पाद्यताम् इति मम अकौण्ट् मध्ये एतद् हरितवर्णस्य पिञ्जः दृश्यते अहं क्लिक् न कृतवान् यतोहि अहं सम्पूर्णतया प्रति अक्षरं न पठितवान् इति कृत्वा विजयलक्ष्मी भगिनी उद्घाटयति चेत् एषः पिञ्जः न दृश्यते एव यतोहि पुनः द्वितीयवारं सा न पठेत् अन्यः द्वितीयवारं पठेत् इति नियमः अस्ति इति कृत्वा इदानीम् अहम् एतत् सेव् कृतवान् एवं विकि मध्ये रेफरेन्स् दानं भवति भवतां भाग्यमस्ति सर्वत्र रेफरेन्स् दानं बहु सरलं भवति एकैकवाक्यमेव भवति तत्र एव झटिति रेफरेन्स् दातुं शक्नुमः परन्तु अत्र किञ्चित् कठिनम् अस्ति वयं कठिनमेव पठितवन्तः इति कृत्वा इतः परं यदा अन्यपुस्तकेषु सुलभपुस्तकेषु कार्यं कुर्मः तदानीं कोऽपि क्लेशः न भवति साक्षात् एवम् एका पङ्क्तिः भवति तत्र रेफरेन्स् दानम् इति तावदेव कार्यं भवति इति भवताम् अन्यः प्रश्नः स्यात् अत्र 45 इति अस्ति अत्र 46 इति अस्ति परन्तु अत्र 1-2 इति आगतं किल तद्विषये चिन्ता करणीया नास्ति अतः एव वयम् अत्र सङ्ख्यां न दत्तवन्तः तद् स्वयम् आगतं सङ्ख्यां निष्कासितवन्तः तद् यदा पुस्तकं सम्पूर्णं भवति इत्युक्ते ट्रान्स्क्लूडेड् इति वदामः तत् कथम् इति अहम् अग्रे इदानीं पाठयामि ट्रान्स्क्लूडेड् यदा भवति तदानीं तद् वयं पठितुं शक्नुमः इदानीं स एव विषयः वयं ट्रान्स्क्लूजन् कथं करणीयं पुस्तकस्य इति पश्यामः इदानीं
महोदय एकः संशयः अस्ति तत् पृष्ठे प्रथमः रेफरेन्स् भवान् यत्र स्थापितवान् अस्ति तत्तु शब्दस्य मध्ये अस्ति
चिन्ता नास्ति वयं तत्र गैप् न कृतवन्तः पुनः स्पेस् न दत्तवन्तः रेफरेन्स् अनन्तरम् अनुक्षणम् आरब्धं पुनः दर्शयामि सम्यक् अत्र यथा अस्ति पश्यतु इदानीं पश्यतु, प्रथम रेफरेन्स् द्वितीय रेफरेन्स् भेदं पश्यतु. प्रयोजना अत्र प्रयोजना साक्षात् अत्र अस्ति. द्वितीय रेफरेन्स् पदस्य अन्ते अस्ति इति कृत्वा वयं पदस्य अन्ते दत्तवन्तः. पुनः मध्ये किञ्चित् गेप् अस्ति, अत्र गेप् अस्ति, अत्र कुत्रापि गेप् नास्ति, साक्षात् एतदेव आरभ्यते इति कृत्वा चिन्ता नास्ति. मध्ये अस्ति चेत् मध्ये वयं दातुं शक्नुमः. सम्यक्, प्रयोजनानवकाशः इत्यत्र, अत्रापि प्रयोजनानन्तरम् अस्ति रेफरेन्स्, वयमपि तत्रैव दत्तवन्तः. सम्यक् अस्ति. आम्, एतद् विषये प्रश्नः अस्ति चेत् अनन्तरमपि प्रष्टुं शक्नोति. इदानीम् अहं ट्रान्स्लूडेड् कथं करणीयम् इति पाठयामि. तद् वस्तुतः अभ्यासेनैव आगच्छति. पुनः एकवारं दर्शयामि तावदेव. एतद् भवद्भिः अवगन्तव्यम् इत्येव नास्ति. एतावत् कार्यं कुर्मः चेदपि बहु कार्यं भवति, अन्ते संयोजनकार्यम् एकमेव अवशिष्यते. अस्तु, इदानीं ट्रान्स्क्लूडेड् पेज् इति यद्वदामः तद् कथं करणीयम् इति अहं वदामि. ट्रान्स्क्लूडेड् नाम किम् इति आदौ पश्यामः.
सूर्यमहोदय,
हा वदतु,
वक्तुं शक्यते वा? यद् यद् पृष्ठम् अधुना एव भवता दर्शितम् अस्ति, तस्मिन् तस्मिन् पृष्ठे अन्ते एव धाम्नः इति शब्दः वर्तते. तत्तु तस्मिन् पृष्ठे न, यदा ओ सि आर् क्रियते तदा एव तद् दृश्यते, परन्तु तत् धाम्नः इति अन्ते शब्दः वर्तते खलु, धाम्नः एवं प्रतिभापर्यन्तम् इति अस्ति. ओ सि आर् इत्यत्र ओ सि आर् कृदनन्तरं धाम्नः एषः अपि शब्दः तत्र दृश्यते. तर्हि तत् शब्दः सः शब्दः तत्र एव स्थापनीयः वा निष्कासितव्यः वा?
अत्र पुस्तके यथा अस्ति तथा करणीयं. पुस्तके धाम्नः इति शब्दः न दृश्यते, निष्कासयामः. पुस्तके यथा अस्ति तथा कुर्मः. अहं तथा कृतवान्, इदानीं
किं कारणं यदा ओ सि आर् कृतवती आसम् तदा एतादृशः बहवः प्रश्नाः आसन् मनसि.
एवमेवं, धाम्नः इति किमर्थम् आगतम् इति, अत्र धाम्नः इत्यस्य सदृशं पदं किमपि स्यात्.
अहमेव कृतवती तद् कृतवती,
तद् अग्रिमपृष्ठतः कापि पेस्ट् कृतवती भगिनि, तथा परन्तु न करणीयम्, एवमेव करणीयम्.
तत्र हैफन् वर्तते खलु, तद् निष्कासितव्या?
न, अहं गतकक्षायाम् उक्तवान् यदि पुटस्य अन्ते हैफन् अस्ति चेत् वयं तथैव स्थापयामः.
भवतु भवतु, धन्यवादः.
इदानीं ट्रान्स्क्लूजन् इत्यस्य किम् इति सामान्यतः पश्यामः. वेदान्तसारः इति एषः, आम्, सन्देशं कोऽपि किमपि प्रेषितवान्, पश्यामि. लता भगिन्याः प्रश्नः अस्ति. रेफ् लिस्ट् किमर्थं देव? वस्तुतः रेफ् लिस्ट् न दद्मः चेदपि तद् रेफरेन्स् आगच्छति, तथापि एषः क्रमः. रेफ् लिस्ट् दद्मः चेत् सम्यक्, कदापि अग्रे अपि दोषः भवितुं नार्हति. यद् रेफरेन्स् मध्ये अस्ति तद् पुटस्य अन्ते आगन्तव्यम् इति चेत् रेफ् लिस्ट् इति दातव्यम्. अतः वयं रेफ् लिस्ट् इति दद्मः, तावदेव. अस्तु, इदानीं पश्यतु, एकं पुस्तकं ट्रान्स्लूडेड् पुस्तकं पश्यामः. वेदान्तसारः सदानन्दः इति अस्ति. एतदेव पुस्तकं कथमस्ति, एवं मुखपुटम् अस्ति, तदनन्तरं एवं निरन्तररूपेण पुटानि आगतानि सन्ति. यथा पुस्तके अस्ति तथैव, कुत्रापि ट्रान्स्प्लो एतद् नास्ति. एतद् वयं बहुविधं द्रष्टुं शक्नुमः. अत्र आप्शन्स् सन्ति. लेऔट् वन् इति कुर्मः चेत् पुस्तकम् एवं दृश्यते. लघु पुस्तकं यथा अस्माकं पुस्तकं भवति तथा एव दृश्यते. अनन्तरं यत्र कुत्रापि अस्माकं सन्देहः अस्ति चेत् मूलपुस्तके एवमस्ति वा अथवा केवलं केनापि एवं कृतं वा इति अस्माकं सन्देहः अस्ति चेत् वयम् अत्रैव ट्रान्स्लूडेड् पेज् मध्ये गन्तुं शक्नुमः इति, एवम् अस्माकं सौकर्यम् अस्ति. एतादृशं पुस्तकं कथं करणीयम् अन्ते कार्यस्य अन्ते कथम् एतत् पुस्तकं प्राप्तव्यम् इत्युक्ते अत्र किञ्चित् कापि पेस्ट् कार्यमेव अस्ति इतस्ततः नीत्वा सर्वपुस्तकानाम् एवं वेदान्तसारः इति यत् पुस्तकमस्ति तदत्र उद्घाटयामि वेदान्तसारः सदानन्दः इति आसीत् अत्र आगतं वेदान्तसारः सदानन्द इति तत् पुस्तकम् उद्घाटितवान् अत्र सम्पाद्यतामिति गच्छामि चेत् पश्यतु तत्र पुस्तके बहूनि पुटानि सन्ति बहु लिखितम् अस्ति अत्र परन्तु किमपि नास्ति वेदान्तसारः इत्यत्र किमपि नास्ति इति एवम् अग्रे वयं नूतनपुस्तकम् एवं कथं कुर्मः इदानीं परात्रिंशिका पुस्तकमेव कुर्मः तदर्थम् आदौ तत् पुस्तकम् अत्र उद्घाटयामि अहं परा श्रीपरात्रिंशति इति अस्ति परात्रिंशिका इति पुस्तकम् अस्ति तत् पुस्तकम् अहम् अत्र उद्घाटितवान् अत्र वेदान्तसारः अस्ति अत्र परात्रिंशिका अस्ति अन्यद् टेब् अहम् उद्घाटयामि किमर्थं तन्निमित्तमेव नूतनपुस्तकम् इदानीं कर्तुं श्रीपरात्रिंशिका इति यद् नाम अस्ति तदेव वयम् इतः कापि कर्तुं शक्नुमः अत्र अत्यन्तं मुख्यम् अस्ति यदा कापि कुर्मः नाम बहु शुद्धं स्यात् एकवारम् अत्र दोषः भवति चेत् पुनः परिष्कारः बहु क्लेशाय भवति अतः अत्र दोषः न करणीयः द्वित्रवारं परिशीलनं करणीयं प्रति अक्षरं सम्यक् अस्ति वा इति यदा वयमेवं क्लिक् कुर्मः एकं रेड् लिङ्क् आगच्छति इदानीं पश्यतु रेड् लिङ्क् आगतं रेड् लिङ्क् इत्युक्ते नूतनतया सृष्टिः करणीया एतस्य पुटस्य अस्मिन् विकिजालस्थाने श्रीपरात्रिंशिका इदं पृष्ठं सृज्यताम् इति आगतम् इत्युक्ते सर्जनं करणीयम् अहं क्लिक् कृतवान् सर्जनार्थं पश्यतु इदानीम् एवम् एकं रिक्तं पुटम् आगतं वयं वेदान्तसारमपि एवं कृत्वा स्थापितवन्तः इतः एव कापि कुर्मः एतद् अद्य न अवगम्यत तथापि कथं भवति इति सामान्यकल्पनार्थं सम्पूर्णम् इतः अहं कापि कृतवान् अत्र नीतवान् इदानीं वेदान्तसारस्य विषये अत्र सर्वविषयाः सन्ति अतः सर्वं परात्रिंशिकाविषये लेखनीयं वेदान्तसारं निष्कासयामि श्रीपरात्रिंशिका यथाशक्ति अत्र कापि पेस्ट् कुर्मः चेदेव उत्तमं परात्रिंशिका इति स्थापयामि अतर् सदानन्द इति अस्ति अत्र सदानन्दः न अत्र द्रष्टव्यं ग्रन्थकर्ता अभिनवगुप्तः इति अस्ति वस्तुतः तस्य टीका अभिनवगुप्तः इति स्वीकुर्मः अभिनवगुप्तः अन्यत् सर्वं किमपि नास्ति ट्रान्स्लेटर् सेक्षन् प्रीवियस् नेक्स्ट् इति सर्वं नास्ति प्रकाशनं कदा जातं प्रकाशनवर्षम् अत्र पश्यामः प्रकाशनवर्षम् अष्टादशोत्तरनवदशशतकं 1918 तदत्र लिखामः 1918 तद् लिखितवन्तः पुनः तस्मिन् पुस्तके पेजस् इण्डेक्स् वेदान्तसारः सदानन्दः इति अस्ति इदानीं यन्त्रं वयं वदामः एतत् पुस्तकार्थं वेदान्तसारः न परात्रिंशिका .pdf इति पुस्तकस्य परात्रिंशिका .pdf इति पुस्तकस्य फ्रम् 1 प्रथमपुटतः अन्तिमपुटम् अत्र किम् अस्ति एतद् मया पुनः दत्तसङ्ख्या तद् न अत्र पृष्ठं परात्रिंशिका इति अधः किल 313 इति अस्ति सा सङ्ख्या दातव्या किमर्थं तद् यन्त्रं किं चिन्तयति अत्र 2 इति न चिन्तयति एतत् पुटं यन्त्रस्य दृष्ट्या 32 अस्ति अतः 1313 अत्र सृज्यते इत्यत्र एतद् आङ्ग्ल अङ्कैः लेखनीयं फ्रम् 1 तद् सम्यक् अस्ति अत्र पेजस् किं 313 एवं कृत्वा एकवारं प्राग्दृश्यं पश्यामः पश्यतु किमपि न लिखितवान् अत्र परन्तु तद् आगच्छेत् आगच्छति वा पश्यतु आगतं श्रीपञ्च परात्रिंशिका अभिनवगुप्तः अत्र प्रकाशनवर्षम् एतावदागतं मुखपुटम् आगतम् अतः एतत् पुटद्वयं तत्र नास्ति अतः एवमागतं प्रिफेस् सर्वमागतम् अग्रे पश्यामः चेत् एवं समग्रपुस्तकम् आगतं यदस्ति सर्वं पुस्तकम् आगतं रेफरेन्स् यदस्ति यावद्वयं सर्वं न दत्तवन्तः चतुर्विंशति दत्तवन्तः एतावता तावद् रेफरेन्स् अत्र आगतं पश्यतु इदानीं वयं यद् रेफरेन्स् दत्तवन्तः तद् 5 इति आगतं वस्तुतः तद् 5 न 45 इत्युक्ते पूर्वतनपुटेषु वयं रेफरेन्स् न दत्तवन्तः इति कृत्वा 5 इति आगतम् एवं सम्पूर्ण एकस्य पुस्तकस्य सर्जनम् एवं रूपेण अभवत् एतत् पुस्तकम् इदानीम् एवं पठितुं जनाः शक्नुवन्ति सम्पूर्णपुस्तकम् एतत् किं करणीयम् इदानीं सेव् करणीयं सम्यक् अस्ति इति चेत् सेव् करणीयम् अहम् एतावता सेव् न कृतवान् अत्र पृष्ठं प्रकाश्यताम् इति अत्र अस्ति पृष्ठं प्रकाशनीयं तदानीं पराक्रिंशिका इति पुस्तकम् अत्र आगतम् इतः परं यदा जनाः अन्विषन्ति ये विकि विषये किञ्चिदपि न जानन्ति तैः पराक्रिंशिका पुस्तकम् अन्वेष्टव्यं चेत् अनुक्रमणिका इति लेखनीयं नास्ति साक्षात् मुखपुटमेव गच्छामि विकि श्रोतसः मुखपुटम् एतदस्ति अत्र श्री परा क्षिका इति अहम् अन्विषामः चेत् तदेव पुस्तकम् आगच्छति अनुक्रमणिका इति लेखनस्य किम् आवश्यकता नास्ति यदि पी डी एफ् अपि द्रष्टुं शक्नु इच्छति तर्हि एवं पार्श्वे एवं गच्छति चेत् पी डी एफ् पुटमपि तत्र दृश्यते एवं वयं पुस्तकानि प्रकाशयामः इदानीम् एतत् किम् अभवत् पुस्तकं बहु लघु पुस्तकम् अध्यायाः सर्वे न सन्ति इदानीं चिन्तयतु अध्यायाः सन्ति तत्रापि अस्माकं व्यवस्था अस्ति उदाहरणार्थं वृच्छकटिकम् इति पुस्तकं पश्यामः वृच्छकटिकम् इति पुटसङ्ख्या आगता अनन्तरं प्रथमोऽङ्कः द्वितीयोङ्कः तृतीयोङ्कः चतुर्थोङ्कः इति एवम् अङ्कानां सङ्ख्या आगता तत्तदङ्कं वयं गच्छामः चेत् तद् अङ्कं तत्र उद्घाट्य सः अङ्कः तत्र उद्घाट्यते इति एवं क्रमः एतदपि ट्रान्स्क्लूडेड् पेज् मध्ये कथम् अस्ति एकैक पुटस्य नाम दत्तमस्ति तत्र वयं साक्षात् पुटं दत्तवन्तः पेजस् इण्डेक्स् इति कृत्वा अत्र चेत् एवं भिन्नभिन्न एतद् दत्तवन्तः तत् कथम् इति वयम् अग्रे कदाचित् जानीमः एवं ट्रान्स्क्लूडेड् पेज् कृत्वा एकस्य पुस्तकस्य प्रकाशनम् अस्ति इदानीम् अस्माकं कार्यं किम् अस्ति तत् पश्यामः प्रूफ् रीडिङ्ग् इदानीं लेऔट् कृतमस्ति रेफरेन्स् कथम् इति वयं ज्ञातवन्तः इदानीं केवलं करणीयम् अस्ति तत् कथम् इति इदानीं वयं पश्यामः पश्यतु इदानीं भवतां श्रीपराक्रिंशिका इति अन्वेष्टुमपि बहु सारल्यम् अभवत् अनुक्रमणिका इति सर्वं लेखनीयं नास्ति श्रीपराक्रिंशिका एवं लेखनीयं साक्षात् पुस्तकं गच्छति तदनन्तरं वयम् एवं कुर्मः चेत् तत्र पुटं गच्छति अत्र उपरि बाणचिह्नं नुदामः चेत् एतत् सम्पूर्णपुस्तकम् एवमपि दृश्यते प्रूफ् रीडिङ्ग् केचन प्रथम प्रूफ् कृतवन्तः द्वितीय प्रूफ् करणीयं कथम् एवम् उद्घाटनीयम् एवम् उद्घाट्य सम्पाद्यतामिति गन्तव्यं सम्पाद्यतामित्यनन्तरं प्रति अक्षरं पठनीयं स्थानकरण सम्यगस्ति वा इति करणं न स्यात् तदा इति अस्ति इदानीम् अत्र किं करणीयम् अत्र योजनीयम् एतद् बहु मुख्यम् एवमस्ति चेत् योजनीयम् अनन्तरं स्यात् अत्र योजनीयं वा योजनीयं परन्तु तत्र स्पेस् दातव्यं यतोहि एकं पदं समाप्तं स्पेस् दातव्यम् अनन्तरं पश्चंश्चार्थान् इति अस्ति पश्चंश्चार्थान् इति तत्र किं करणीयं योजनीयम् एतद् योजनं कुर्वन्तः वयमेवं प्रूफ् रीडिङ्ग् कुर्मः अन्ते वर्णपरिवर्तनं कृत्वा एकवारं सम्पूर्णं प्रति अक्षरमपि पठनीयम् अहम् अक्षरपठनं न दर्शितवान् अत्र वर्णाश्च इति अस्ति तत्र तथैव अस्ति वा इति द्रष्टव्यं वर्णांश्च इति स्यात् अपश्यतु वर्णांश्च इति अनुस्वारः आवश्यकः अनुस्वारः दातव्यः एवं कृत्वा परिवर्तनानि प्रकाश्यन्ताम् वर्णपरिवर्तनं कृत्वा परिवर्तनानि प्रकाश्यन्ताम् इति करणीयं सम्पूर्णपुटं पठित्वा तदानीं सुन्दररूपेण पुस्तकम् अस्माकं किं भवति प्रेजेण्ट् भवति. एवं पीतवर्णं कुर्मः पाटलवर्णस्य पृष्ठानि, पाटलवर्णस्य पृष्ठानि पीतवर्णानि कृत्वा यानि पीतवर्णीयानि, पीतवर्णीयानि इति येल्लो कलर् मध्ये पृष्ठानि सन्ति, तानि पृष्ठानि किं कुर्मः ग्रीन् कलर् कुर्मः. ग्रीन् कलर् करणावसरे प्रति अक्षरं द्रष्टव्यं, रेफरेन्स् दत्तमस्ति वा इति द्रष्टव्यं, रेफरेन्स् तद् सम्यक् अस्ति वा इति द्रष्टव्यम्. एवं दक्षिणपार्श्वे यथा पृष्ठम् अस्ति वामपार्श्वे अपि आगतम्, इतः परम् अत्र परिष्कारः नास्ति इति स्थितिः यदा आगच्छति तदानीं वयं तस्य पृष्ठस्य ग्रीन् कलर् कृत्वा हरितवर्णं कृत्वा प्रकाशनं कुर्मः, सेव् कुर्मः. एतत् अस्माकं कार्यशाला अनन्तरस्थं कार्यम्. पुनः अस्माकं वीडियोस् अपि सन्ति, इतोपि अधिकविषयाः पाठनीयाः इति अस्माकं मनसि अस्ति. तदर्थं ये आसक्ताः सन्ति ते चाट् मध्ये वा वाट्सप् मध्ये वा अथवा ईमेल् मध्ये वा अस्माकं सम्पर्कं कुर्वन्तु, इतोपि अधिकविषयाः पाठ्यन्ते. इदानीं बहु विषयाः इतोपि वक्तव्याः सन्ति, ते विषयाः अनन्तरं पाठ्यन्ते, भवन्तः सम्पर्कं कर्तुम् अर्हन्ति.